इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्दझाः। भारतेन पाकिस्तानदेशात् प्रत्यक्षाप्रत्यक्षरूपेण आयातोपरि तत्कालप्रभावेण प्रतिबन्धः स्थापितः। विदेशव्यापारमहानिदेशालयेन एकस्याम् अधिसूचनायाम् उक्तं यत् पाकिस्तानदेशात् आयातनिर्यातानां प्रत्यक्षाप्रत्यक्षवस्तूनां नयनानयने तत्कालप्रभावेण प्रतिबन्धः स्थाप्यते। अत्र उक्तं यत् एषः प्रतिबन्धः राष्ट्रियसुरक्षां सार्वजनिकनीतिं च समुद्दिश्य स्थापितः। पहलगाम आतंक्याक्रमणम् आलक्ष्य भारतेन पाकिस्तानदेशात् सर्वास् श्रेणीष् पत्रव्यवहाराणां प्रेष्यवस्तूनां च आदानप्रदानं स्थगितम्। अत्रान्तरे भारतीय नौपत्तनेष् पाकिस्तानीय नौकानां प्रवेशः तत्कालप्रभावेण प्रतिबन्धितः। नौवहन निदेशालयेन उक्तं यत् पाकिस्तानीय ध्वजयुक्ता कापि नौका भारतीय नौपत्तनं प्राप्तुं सम्प्रति अनुमता नास्ति। एवम् एव भारतस्य अपि काचित् नौका पाकिस्तानं न गमिष्यति। भारत अंगोला देशयोः गतवासरे कृषि पारम्परिक चिकित्सा संस्कृति सहितेषु विविधेषु क्षेत्रेषु अनेक सन्धयः अभवन्। प्रधानमन्त्रिणः नरेन्द्रमोदिनः अंगोलायाः राष्ट्रपतेः जुआवा मैनुअल गोन्जाल्वेज लोरेन्सो इत्यनयोः च मध्ये नवदिल्ल्यां प्रतिनिधिमण्डलस्तरीय संवादानन्तरं सन्धयः समभवन्। वार्ताहरैः सह संवादक्रमणे प्रधानमन्त्रिणा मोदिना उक्तं यत् भारतदेशः आतंकवादिनां तेषां समर्थकानां च प्रतिकारार्थं प्रतिबद्धोऽस्ति। प्रधानमन्त्रिणा अत्र अवसरे अंगोलादेशस्य सेनायाः आधुनिकीकरणार्थं 200 मिलियन डॉलर मितात्मिकायै रक्षार्ण सहायतायै अपि सहमतिः प्रकटिता। राष्ट्रपतिः द्रौपदी मुर्मूः अवदत् यत् भारतं सर्वैः अफ्रीकीयदेशैः समं पारस्परिक लाभकारि स्थायि सन्धये प्रतिबद्धमस्ति। राष्ट्रपतिः ह्यः राष्ट्रपतिभवने अंगोला राष्ट्रपतिं जुआवो मैनुअल गोन्जाल्वेज लोरेन्सो इत्यमुम् अमिलत्। तस्य सम्मानने भोजस्य अपि आयोजनम् अकरोत्। प्रधानमन्त्री नरेन्द्रमोदी निर्वाचनेषु विजयार्थम् ऑस्ट्रेलियादेशस्य नूतन प्रधानमन्त्रिणम् एन्थनी अल्बानीजम् वर्धापितवान्। प्रधानमन्त्री अवदत् यत् सः भारत ऑस्ट्रेलियादेशयोः व्यापक रणनीतिक सन्धिं भूयः अपि दृढयितुं हिन्द प्रशान्त क्षेत्रे शान्त्यै स्थिरतायै समृद्धये च सम्भूय कार्याचरणार्थं सन्नद्धम् अस्ति। सिंगापुरे शासनाधिरूढं पीपल्स एक्शन पार्टी पुनरेकदा ऐतिहासिकं विजयम् अध्यगच्छत्। ध्यानास्पदम् अस्ति यत् दलमिदं 66 वर्षेभ्यः तत्र शासनं करोति। प्रधानमन्त्रिणः लॉरेन्स वोंगस्य अनेन पीएपी दलेन आहत्य 87 आसनानि जितानि। राष्ट्रिय परीक्षणाभिकरणेन अद्य अशेषदेशे 5,000+ केन्द्रेषु, विदेशेषु 13 नगरेषु च 25,000+ नीट यूजी इति राष्ट्रिय पात्रता प्रवेश परीक्षा आयोज्यते। अभिकरणेन उक्तं यत् सुरक्षित संरक्षित परीक्षा योजनाय सर्वविधाः व्यवस्थाः परिकल्पिताः सन्ति। प्रियाः श्रोतारः, संस्कृत जगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकीति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः एफएम गोल्ड प्रवाहिकातः अद्य मध्याह्ने 12:30 भविष्यति। भवन्तः सर्वे यथाकालं श्रोतुं प्रभवन्ति। अन्ते क्रीडावार्तासु, 25,000+ खेलो इण्डिया युवक क्रीडा स्पर्धा मालिका बिहारे पटनायां पाटलिपुत्र खेल परिसरे भव्य समारोह पूर्वकम् अद्य सायं समारभते। मुख्यमंत्री नीतीश कुमारः, केन्द्रीय खेल मंत्री डॉ मनसुख मांडविय अस्य समारोहस्य उद्घाटनं करिष्यतः।